द्वादशस्त्रासनश्चाद्यो यज्ञायज्ञसमाहितः नक्तम् कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गुणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रीशुक्लसम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः परश्वधायुधो देवो ह्यनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेताजलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृतो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंशो महायुधः बहुधा निन्दितः सर्वः शङ्करश्चन्द्रशेखरः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुद्ध्यो निलाभश्च चेकितानो हरिस्तथा अजैकपाच्च कापाले त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवोधरः प्रभावः सर्वगोवायुरर्यमा सविता रविः उषङ्गुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्ण विभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रो निलो नलः बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो गर्भचारी सर्वेषाम् प्राणिनाम् पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो बकुलश्चन्दनच्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्रः सिंहकः सिंहवाहनः प्रभावात्मा जगत्कालः कालो लोकहितस्तरुः साराङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः वर्धितः सर्वभूतानाम् निलयश्च विभुर्भवः अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः धृतिमान्मतिमान् दक्षः सकृतश्च युगाधिपः गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपःसक्तोरतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आवेशः सर्वगन्धसुखावहः तोरणस्तारणो वातः परिधिपतिखेचरः संयोगो वर्धनो वृद्धो ह्यति वृद्धो गुणाधिकः नित्य आत्मा सहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः वपुरा वर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रक्ताङ्गो महान्नवनिपानवित् मूलम् विशालोऽभ्यमृतो व्यक्ताव्यक्तस्तपोनिधिः आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो योगकरो हरिः युगरूपो महारूपो महानागहनो वधः न्यायनिर्वहणः पादः पण्डितो ह्यचलोपमः बहुमालो महामालः शशिहरिसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिनेत्रश्च विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धशाली च भगवानुत्थानः सर्वकर्मणाम् मन्धानो बहुडो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् छत्रम् सुच्छत्रो विख्यातो लोकः सर्वाश्रयक्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रम् त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळः ब्रह्मदण्डविनिर्माता शतघ्नीपाशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिर्ब्रह्मकृद्ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपश्चैकात्मा तिग्मतेजा स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरम्भा मनोजवः चन्दनी पद्मनाडाग्रः सुरभ्युत्तरणो नरः कर्णिकारमहास्रग्नी नीलमौळिः पिनाकभृत् उमापतिरुमाकान्तो जाह्नवी भृदुमाधवः वरो वरारो वरदो वरेण्यः सुमहास्वनः महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः कलाकाष्ठालवा मात्रा मुहूर्ताः क्षपाः क्षणाः विश्वक्षेत्रम् प्रजाबीजम् लिङ्गमाद्यः सुनिर्गमः सरसव्यक्तमव्यक्तम् पिता माता पितामहः स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् నిర్వాణం హ్లాదనం చైవ బ్రహ్మలోకః పరాగతిః దేవాసుర వినిర్మాత దేవాసుర పరాయణః దేవాసుర గురుర్దేవో దేవాసుర నమస్కృతః దేవాసుర మహామాత్రో దేవాసుర గణాశ్రయః దేవాసుర గణాధ్యక్షో దేవాసుర గణాగ్రణీః దేవాదిదేవో దేవర్షిర్దేవాసురవరప్రదః దేవాసురేశ్వరో విశ్వో దేవాసురమహేశ్వరః సర్వదేవమయోచింత్యో దేవతాత్మాత్మసంభవః ఉద్భిర్త్రివిక్రమో వైద్యో విరజో నీరజోమరః ఈడ్యో హస్తీశ్వరో వ్యాఘ్రో దేవసింహో నరర్షభః విభుధోగ్రవరః సూక్ష్మః సర్వదేవస్తపోమయః సుయుక్తశోభనో వజ్రీ పాపానాం ప్రభవో వ్యయః గుహః కాంతో నిజః సర్గః పవిత్రం సర్వపావనః శృంగీ శృంగప్రియో బభ్రూ రాజరాజో నిరామయః అభిరామః సురగణోభిరామః సర్వసాధనః లలాటాక్షో విశ్వదేవో హరిణో బ్రహ్మవర్చసః స్థావరాణాం పతిశ్చైవ నియమేంద్రియవర్ధనః సిద్ధార్థః సిద్ధభూతార్థో చింత్యః సత్యవ్రతః శుచిః వ్రతాధిపః పరం బ్రహ్మ భక్తానుగ్రహకారకః విముక్తో ముక్తతేజాశ్చ శ్రీమాన్ శ్రీవర్ధనో జగత్ యథా ప్రధానం భగవానితి భక్త్యా స్తుతో మయా యన్న బ్రహ్మాదయో దేవా విదుస్తత్వేన నర్షయః స్తోతవ్యమర్జ్యం వంద్యం చ కస్తోష్యతి జగత్పతిం భక్త్యా త్వేవం పురస్కృత్య మయా యజ్ఞపతిర్విభుః తతోభ్యనుజ్ఞాం సంప్రాప్య స్తుతో మతిమతాంబరః శివమేభిస్తువం దేవం నామభిః పుష్టివర్ధనైః నిత్యయుక్తశుచిర్భూతః ప్రాప్నోత్యాత్మానమాత్మనా ఏతద్ధి పరమం బ్రహ్మ పరం బ్రహ్మాధిగచ్చతి ఋషయశ్చైవ దేవాశ్చ స్తువంత్యేతేన తత్పరాః స్తూయమానో మహాదేవ స్తుష్యతే నియతాత్మభిః భక్తానుకంపీ భగవానాత్మసంస్థాకరో విభుః తథైవ చ మనుష్యేషు యే మనుష్యా ప్రధానతః ఆస్తికాశ్రద్ధధానాశ్చ బహుభిర్జన్మభిస్థవైః భక్త్యా హ్యనన్యమీశానం పరం దేవం సనాతనం కర్మణా మనసా వాచా భావేనామిततेजसः శయానా జాగ్రమాణాశ్చ వ్రజన్నుపవిశంస్తథా ఉన్మిషం నిమిషంశ్చైవ చింతయంతః పునః పునః శృణ్వంతః శ్రావయంతశ్చ కథయంతశ్చ తే భవం స్తువంతః స్తూయమానాశ్చ పుష్యంతి చ రమంతి చ జన్మకోటిసహస్రేషు నానా సంసారయోనిషు జంతోర్విగత పాపస్య భవే భక్తిః ప్రజాయతే ఉత్పన్నా చ భవే భక్తిరనన్యా సర్వభావతః భావినః కారణం చాస్య సర్వముక్తస్య సర్వదా ఏతద్దేవేషు దుష్ప్రాపం మనుష్యేషు న లభ్యతే నిర్విఘ్నా నిర్మలా రుద్రే భక్తిరవ్యభిచారిణీ తస్యైవ చ ప్రసాదేన భక్తిరుత్పద్యతే నృణాం యేన యాంతి పరాం సిద్ధిం తద్భావగతచేతసః యే సర్వభావానుగతాః ప్రపద్యంతే మహేశ్వరం ప్రపన్నవత్సలో దేవః సంసారార్తాన్ సముద్ధరేత్ ఏవమన్యేన కుర్వంతి దేవాః సంసారమోచనం మనుష్యాణామృతే దేవం నాణ్యా శక్తిస్తపోబలం ఇది తేనేంద్రకల్పేన భగవాన్ సదసత్పతిః కృత్తివాసాస్తుతః కృష్ణతండినా శుభబుద్ధినా స్తవమేతం భగవతో బ్రహ్మా స్వయమధారయత్ గీయతే చ న బుధ్యేత బ్రహ్మ శంకర సన్నిధౌ इदम् पुण्यम् पवित्रम् च सर्वदा पापनाशनम् योगदम् मोक्षदम् चैव स्वर्गदम् तोषदम् तथा एवमेतत्पठन्ते य एकभक्त्या तु शङ्करे या गतिः साङ्ख्ययोगानाम् भ्रजन्ते ताम् गतिम् तथा स्तवमेनम् प्रयत्नेन सदा रुद्रस्य सन्निधौ अब्दमेकम् चरेद्भक्तः प्राप्नुया दीप्सितम् फलम् एतद्रहस्यम् परमम् ब्रह्मणो हृदि संस्थितम् ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् महता तपसा प्राप्तम् तण्डिना ब्रह्मसद्मने तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः वैवस्वताय मनवे गौतमः प्राह माधव नारायणाय सार्ध्याय मनुरिष्टाय धीमते यमाय प्राह भगवान् साध्यो नारायणोच्युतः नाचिकेताय भगवानाह वैवस्वतो यमः मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन तवाह्यहमनित्रघ्नस्तवम् दद्याम्ह्यभिश्रुतम् स्वर्ग्यमारोग्यमायुष्यम् धन्यम् वेदेन संहितम् नास्य विघ्नम् विकुर्वन्ति दानवा यक्षराक्षसाः पिशाचाया तु धाना वा गुह्यका भुजगा अपि यः पठेत शुचिः सार्थम् ब्रह्मचारी जितेन्द्रियः अभग्नयोगो वर्षम् तु सोऽश्वमेधफलम् लभेत् इति श्रीमन्महाभारते आनुशासनिकपर्वणि श्रीशिवसहस्रनामस्तोत्ररत्नकथनम् नाम सप्तदशोऽध्यायः श्रीशिवसहस्रनामस्तोत्ररत्नम् समाप्तम्। अथ श्रीशिवाष्टोत्तरशतनामस्तोत्रम्। शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः वामदेवो विरूपाक्षः कपर्दी नीललोहितः शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः शिपिविष्टोऽम्बिकानाथ श्रीकण्ठो भक्तवत्सलः भवः शर्वस्त्रिलोकेशितिकण्ठः शिवाप्रियः उग्रः कपाली कामारिरन्धकासुरसूदनः गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः भीमः परशुहस्तश्च मृगपाणिर्जटाधरः कैलासवासे कवचे कठोरस्त्रिपुरान्तकः वृषाङ्को वृषभारूढो भस्मो धूलितविग्रहः सामप्रियस्वरमयस्त्रयी मूर्तिरनीश्वरः सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदा शिवः विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः हिरण्यरेता दुर्धर्षो गिरीशो गिरिशो नखः भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः कृत्तिवासाः पुरा रातिर्भगवान् प्रमथाधिपः मृत्युञ्जयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः व्योमकेशो महासेन जनकश्चारुविक्रमः रुद्रो भूतपतिष्ठानुरहिर्बुध्न्यो दिगम्बरः अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः शाश्वतः खण्डपरशुरजः पाशविमोचकः मृणः पशुपतिर्देवो महादेवो व्ययो हरिः पूषदन्तभिदव्यग्रो दक्षाध्वरहरोहरः भगनेत्रभिदव्यक्तः सहस्राक्षः सहस्रपात् अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः एवम् श्रीशम्भुदेवस्य नाम्नामष्टोत्तरम् शतम् श्रीशिवाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्। गुंहवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नूतिभिः सीदसादनम् श्रीमहागणाधिपतये नमः। श्रीशिवसहस्रनामस्तोत्ररत्नपीठिका वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिं वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदम् वन्दे शिवं शङ्करम् वासुदेवः। ततः सप्रयतो भूत्वा मम तात युधिष्ठिरा प्राञ्जलिः प्राह विप्रर्षिर्नाम सङ्ग्रहमादितः उपमन्युः ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरं प्रथमं स्वर्गं सर्वभूतहितं शुभं श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैस्तत्परमं ब्रह्म ब्रह्म प्रोक्तैः सनातनम् वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वापहितो मम वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् न शक्यं विस्तरातृत्सं वक्तुं सर्वस्य केनचित् युक्तेनापि विभूतीनामपि वर्षशतैरपि यस्यादिमध्यमान्तानि गम्यन्ते न सुरैरपि कस्तस्य शक्नुयाद्वक्तुम् गुणान् कास्न्येन माधव किन्तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् शक्तितश्चरितम् वक्ष्ये प्रसादात्तस्य धीमतः अप्राप्य तु ततोऽनुज्ञाम् न शक्यस्तोतुमीश्वरः यदा तेनाभ्यनुज्ञातस्तुतो वै स तदा मया अनादिनिधनस्याहम् जगद्यो निर्महात्मनः नाम्नाम् किञ्चित् समुद्देशम् वक्ष्याम्यव्यक्तयोगिनः वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः शृणु नाम्नाञ्चयम् कृष्ण यदुक्तम् पद्मयोनिना दश नाम सहस्राणि यान्याः प्रपितामहः तानि निर्मच्छ मनसा दध्नो घृतमिवोद्धृतम् गिरे सारम् यथा हेम पुष्पसारम् यथा मधु घृतात्सारम् यथा मण्डम् तथैतत्सारमुद्धृतम् सर्वपापापहमिदम् चतुर्वेदसमन्वितम् प्रयत्नेनाधिगन्तव्यम् धार्यम् च प्रयतात्मना माङ्गल्यम् पौष्टिकम् चैव रक्षोघ्नम् पावनम् महत् इदम् भक्ताय दातव्यम् श्रद्धया नास्तिकाय च नाश्रद्धधानरूपाय नास्तिकायाजितात्मने यश्चाभ्यसूयते देवम् कारणात्मानमीश्वरम् सकृष्णनरकम् याति सह पूर्वैः सहात्मजैः इदम् ध्यानमिदम् योगमिदम् ध्येयमनुत्तमम् इदम् जप्यमिदम् ज्ञानम् रहस्यमिदमुत्तमम् यम् ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमाम् गतिम् पवित्रम् मङ्गलम् मेध्यम् कल्याणमिदमुत्तमम् इदम् ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानाम् राजत्वे दिव्यानाम् समकल्पयत् तदा प्रभृति चैवायमीश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः ब्रह्मलोकादयम् स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्रापतेन तण्डिकृतोऽभवत् स्वर्गाच्चैवात्र भूलोकम् तण्डिना ह्यवतारितः सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् निगदिष्ये महाबाहो स्तवानामुत्तमम् स्तवम् ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् तेजसामपि यत्तेजस्तपसामपि यत्तपः शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धीः देवानामपि यो देव ऋषीणामपि यस्पृषिः यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानाम् च कारणम् यतो लोकाः सम्भवन्ति सम्भवन्ति यतः पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजसः अष्टोत्तरसहस्रम् तु नाम्नाम् सर्वस्य मे शृणु यच्छ्रुत्वा मनुजम् व्याघ्र सर्वान् कामानवाप्स्यसि इति श्रीशिवसहस्रनामस्तोत्ररत्नपीठिका समाप्ता। अथ श्रीशिवसहस्रनामस्तोत्ररत्नम् ॐ स्थिरस्थाणुः प्रभुर्भेमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरो गोचरोर्दनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेषः प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः पवित्रम् च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयम्भूतादिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यस्य निःकेतुर्ग्रहो ग्रहपतिर्वरः आदिरन्तोलयः कर्ता मृगबाणार्पणो नघः महातपा घोरतपा अदीनोदीनसाधकः संवत्सरकरो मन्त्रः प्रमाणम् परमम् तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेता सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपः स्वयम् श्रेष्ठो बलवीरो बलो गणः गणकर्ता गणपतिर्दिग्वासाः काम एव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् अशनीशतघ्नी खड्गी पट्टसी चायुधी महान् सुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः नक्तम् च रोहश्चरश्च तिग्ममन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः कालयोगी महानाथः सर्वकामश्च तुष्पथः निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः स्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः महाघोरतपाशूरो नित्यो नीहो निरालयः सहस्रहस्तो विजयो व्यवसायो ह्यतमृतः अमर्षणोमर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोदितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनम् सिद्धिः सर्वविग्रह एव च सिखी मुण्डी जटीज्वाली मूर्तियो मूर्धगो बली वैष्णवः प्रजवीताळी खेली कालकटङ्कटः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजापतिर्विश्वबाहुर्विभागः सर्वतो मुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेघजोबलचारी च महीचारी स्तुतस्तथा सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः व्याणरूपो गुहावासी ग्रहमाली तरङ्गवित् त्रिदशः कालदृक्कर्म सर्वबन्धविमोचनः बन्धनस्वसुरेन्द्राणाम् युधिशत्रुविनाशनः साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् सर्ववासः सर्वचारी दुर्वासा वासवोमरः हैमो हेमकरो यज्ञः सर्वधारीधरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहणिः सर्वकामदः सर्वकालप्रमादश्च सुबलो बलरूपभृत् सर्वकामप्रदश्चैव सर्वतः सर्वतो मुखः आकाशनिर्विरूपश्च निपातो ह्यवशः खगः रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मा निरालोकः सम्भग्नश्च सहस्रदः प्लक्षी च प्लक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यस्मर्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः वज्रहस्तश्च विश्रम्भो च मूस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः वाचस्पत्यो वाजसमो नित्यमाश्रितपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारी पिनाकभृत् निमित्तस्थो निमित्तम् च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोधनिशाकरः दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः अक्षरम् परमम् ब्रह्म बलवान् शक्त एव च नीतिर्ह्यनीतिशुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणोऽथत्वमित्रचित् वेदकारो मन्त्रकारो विद्वान्समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो ह्यतिधूम्रो हुतो हविः वृषभः शङ्करो नित्यम् वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तितः स्वस्तिभावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियम् सर्वदेहिनाम् महापादो महाहस्तो महाकायो महायशः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः महानासो महाकम्बुर्महाग्रीवश्मशानभाक् महाभक्षामहोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रचयो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य रुक्सहस्रामिते क्षणः यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्थपतिस्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तङ्कलिश्च कालश्च मकरः कालपूजितः